अन्येभ्यो व्यतिरिक्तमात्मनियतं बिभ्रत् पृथग्वस्तुतामादानोज्झन शून्यमेतदमलम् ज्ञानं तथावस्थितं मध्याद्यन्तविभागमुक्तसहज स्फारप्रभाभासुरः शुद्धज्ञानघनो यथास्य महिमा नित्योदितस्तिष्ठति।